अस्तु भगिनी वदतु इदानीं.
नमो नमः. पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्. संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजम्. आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्. हिन्दुधर्मं समाजं च, पवित्रां संस्कृतिं तथा. संरक्ष्य ननु कुर्याम विश्वं शान्ति समन्वितम्. हरि ओम् श्री गुरुभ्यो नमः. हरिः ओम्.
नमस्कारं, परमेश्वरन् हियर्.
नमस्कारं महोदय. सर्वेषां स्वागतं. वर्गम् आरम्भं कुर्मः. धन्यवादः संध्या भगिनी, सुन्दरम् आसीत् भवत्याः उच्चारणं, गीतमिव आसीत्. अद्यतन एको आगच्छति, प्रतिध्वनिः आगच्छति, कुतः इति न जानामि. अस्तु, अद्यतनविषयः अस्ति विशेषणविशेष्यभावः इति. इत्युक्ते किं विशेषम् इत्युक्ते किं विशेष
वि कम्प्लीटेड्
आम् आम्
अस्तु
आम् आम् केवलं पुनस्मरणार्थमेव पृच्छामि. विशेष्यम् इत्युक्ते किं, विशेषणम् इत्युक्ते किं, विशेष्यं विशेषणं.
विशेषणम् इत्युक्ते अड्जेक्टिव्, विशेष्यम् इत्युक्ते
नामपदम्. अस्तु, विशेष्यस्य लिङ्गवचनविभक्ति अनुसृत्य विशेषणं भवति, तत् वयं जानीमः खलु. स्त्रीलिङ्गे अस्ति चेत् स्त्रीलिङ्ग, अपि च बहुवचनम् अस्ति चेत् बहुवचनम्, अपि च विभक्ति किम् इति, विभक्ति का इति दृष्ट्वा वयं विशेषणं कुर्मः. अस्तु, वयम् एतत् अभ्यासे कुत्र स्मः वयम्?
वी कम्प्लीटेड् टिल् तासु भगिनि.
तासु, अस्तु, एतत् पर्यन्तं कृतवन्तः वयम्. अस्तु, गोपिका भगिनी आरम्भं करोति वा? अस्तु, करोतु.
किं तासां अधिवक्तानां सम्भाषणं प्रचलति.
तासाम् अधिवक्तानाम्, अधिवक्तानाम् इति पदं कथम् आगच्छति? भवती एव कृतवती खलु तासाम्. अस्तु, उत्तमम्. सो अत्र एवमेव अस्ति, विशेषणं दत्तम् अस्ति, विशेष्यं वयमेव योजनीयं तत्र. तासां स्त्रीलिङ्गबहुवचनं षष्टिविभक्ति, अतः किमपि स्त्रीलिङ्गबहुवचनषष्टिविभक्तिपदं योजनीयं तत्र. अस्तु, अग्रे का वदति? अहं नाम लिखामि.
अहं वदामि भगिनि.
अस्तु भगिनि, गोपिका भगिनी, केतकी भगिनी, परमेश्वर महोदय, सागरी भगिनी, संध्या भगिनी, शारदा, सविता भगिनी, उमा कृष्णन भगिनी, उषा भगिनी, ज्योति भगिनी. अस्तु, अस्तु, केतकि भगिनी अग्रे.
सेकेण्ड् वन्, सेकेण्ड् वन् भगिनी.
न न, एताभिः.
ओ ओ, 14 14, एताभिः, एतया, एतया.
न, अत्र एताभिः इति अस्ति चेत् लिङ्गं किं वचनं किं विभक्ति का अत्र
तृतीया बहुवचन
सम्यक् स्त्रीलिङ्गं वा पुल्लिङ्गं वा
स्त्रीलिङ्गं
स्त्रीलिङ्गम् अतः अन्य स्त्रीलिङ्गपदं तृतीया विभक्ति बहुवचनं योजयतु एताभिः
एतया
न न एताभिः एव एताभिः एतया इति एकवचनं खलु
ओ एतया एतया
एतया एताभ्याम् एताभिः
एताभ्यः
एताभिः
एताभिः
एतया एताभ्याम् एताभिः इति स्त्रीलिङ्ग तृतीयाविभक्तिरूपाणि इदानीम् अन्य नामपदम् आवश्यकम् एताभिः
भगिनि एक्साम्पल् गिव् वन्
अस्तु एताभिः मालाभिः अलङ्कारं करोमि
ओ ओ ओ सेण्टेन्स्
एताभिः बालिकाभिः सह अहं
एताभिः बालिकाभिः सह आपणं गच्छति
गच्छति अन्य कोऽपि गच्छति
गच्छति
गच्छति एताभिः बालिकाभिः
आपणं गच्छति
सः आपणं गच्छति अस्तु परमेश्वर महोदय एतस्याः
वन् सेकेण्ड् एतस्याः एतस् नपुंसकलिङ्गं
नपुंसकलिङ्गम् अथवा पुल्लिङ्गमपि क्षम्यतां महोदय एतस्याः इति अस्ति अतः नपुंसकलिङ्ग पुल्लिङ्गं न
श्रीलिङ्गं
स्त्रीलिङ्ग एतस्याः
एतस्याः श्रीलिङ्ग
इति पुल्लिङ्ग नपुंसकलिङ्ग
क्षम्यताम् एकवचनम्
एकवचनं खलु एतस्याः एतस्याः इति विभक्तिरूपं किं विभक्ति का
तृतीया
तृतीया इति एतया तृतीया
एतस्याः
सर्वाणि रूपाणि वदामः चेत् सा इति प्रथमा विभक्ति तां द्वितीया तया ए इति अस्ति एतया
विभक्ति
अस्तु अस्तु सो अहं वदामि एषा इति प्रथमा विभक्ति एतां द्वितीया एतया तृतीया एतस्यै एतस्याः पञ्चमी एतस्याः षष्टि अपि
षष्टि अस्ति ओके
षष्टि अपि एतस्यां सप्तमी
सो पञ्चमी षष्टि विभक्ति
एतस्याः सो अत्र अहं दर्शयामि सा इति अस्ति खलु ततः पूर्वम् ए योजयामः चेत् एषा एत एतया एवं भवति अत्र पश्यतु एतस्याः इति अस्ति अस्तु अत्र पुनः आगच्छामः
एतस्याः गृहं पार्श्वे
अस्ति अस्तु एतस्याः गृहं पार्श्वे अस्ति सम्यक् परन्तु एतस्याः वि नीड् अनदर् नौन् हियर् एतस्याः
एतस्याः
महिलायाः गृहं
एतस्याः महिलायाः गृहं पार्श्वे अस्ति
पार्श्वे अस्ति अस्तु अस्तु सागरी भगिनी तस्मिन्
आं भगिनि पुल्लिङ्गं या नपुंसकलिङ्गं
पुल्लिङ्गं
एकवचनं सप्तमी विभक्ति सम्यक् वा
सम्यक् सम्यक्
तस्मिन् गृहे सुन्दरम् अस्ति.
तस्मिन् तस्मिन् गृहे किम् अस्ति?
ओ इन्सैड् नो forgotten the word for table, Bhagini. Can you help me?
Utpitika.
Utpitika asti.
Tasmin grihe utpitika asti. Samyak. Asto. Sandhya, Bhagini. Sarvesham.
Sam, Bhagini. Sarvesham is... षष्टि बहुवचनम् सर्वेषां जनानां इदानीं सर्वेषां जनानां भीतिः सन्ति.
भीत्या गृहे तिष्ठन्ति. सर्वे जनाः भीत्या तिष्ठन्ति. सर्वेषां जनानां मनसि मेक् लैक् देट्
ओके.
सर्वेषां जनानां मनः मनसि सारी मनसि भीतिः अस्ति. तस्यां विल् गो टु शारदा भगिनि. भगिनि शारदा भगिनि नेक्स्ट्.
सो सर्वेषां भीतिः सन्ति अस्ति.
नो नो दट् विल् नाट् वर्क्. सर्वेषां जनानां भीतिः इट् विल् नाट् वर्क्.
ओके. भीतिः अस्ति वुड् बि द लघुवाक्यं.
आम् 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 भीतिः अस्ति. सर्वेषां जनानां कुत्र भीतिः अस्ति? मनसि भीतिः अस्ति
भगिनि. मनसि
मनसि बिकास् इट् इस् अ मनस् शब्द. इट् इस् अ सकारान्तशब्द.
सप्तमी फार् मनस् इस् मनसि.
मनसि इट्स् लैक् भवान् शब्द आल्सो वि हेव् भवत् लैक् इफ् ऐ वाण्ट् टु से ऐ हेव् फेत् इन् यु भवति विश्वासः मम विश्वासः अस्ति भवति. सो फार् आल् द वर्ड्स् विच् एण्ड् इन् कान्सनेण्ट् द मूलरूपम् इफ् इट् एण्ड्स् इन् कान्सनेण्ट् देन् इट् दिस् इस् द फार्म्.
अस्तु
भगिनि. अस्तु अस्तु अग्रे शारदा भगिनि.
आं भगिनि.
तस्यां
सप्तमी एकवचनं
त्रिलिङ्गशब्दः. सत्यं. तस्यां
नगरे
भगिनि. सो यु हाव् टु
तस्यां
It's okay, Bhagini. So I'll give you another word. So there is another word called Nagari. That is also like Nagaram. So you can choose Nagariyam, like that.
Tasyam Nagariyam Metro Yanam Astiva.
Uttama. Metro Yanam Astiva. Samyak.
Dhanyavada, Bhagini.
Dhanyavada, Bhagini. Astu. Agre, Avarane Dattanam Visheshananam Uchitam Rupam विशेष्यानां लिङ्गवचनविभक्ति अनुगुणं ज्ञात्वा तैः रिक्तस्थानानि पूरयत. किं वदन्ति अत्र? किं वदन्ति इत्युक्ते पुस्तकानि इति विशेष्यं विशेष्यस्य लिङ्गवचनविभक्ति विभक्ति अनुगुणं मीन्स् फालोविङ्ग् दट् विभक्तिं ज्ञात्वा तादृशं विशेषणं भवतु इति. अत्र श्रेष्ठ इति मूलरूपम्, पुस्तकानि इति नपुंसकलिङ्ग द्वितीयाविभक्ति बहुवचनम्. सो अतः श्रेष्ठ अपि श्रेष्ठानि इति भवति. अस्तु वा? अस्तु. सविता भगिनी.
आं भगिनि, अहम् अद्य समीचीनलेखनीं क्रीतवान्. अहम् अद्य समीचीनीं लेखनीं क्रीतवान्.
सो अत्र समीचीनाम् इति भवति. किमर्थम् इत्युक्ते सर्वत्र आ एव भवति. ओन्लि सम्टैम्स् एव ई भवति, लैक् सुन्दरी अपि च पुरातनी इति भवति. अस्तु, पुनः वदतु भगिनि. अहम्
अद्य समीचीना
समीची द्वितीया विभक्ति खलु, अतः समीचीनां लेखनीं क्रीतवान्.
समीचीनां लेखनीं क्रीतवान्.
सम्यक्, समीचीनां लेखनीं क्रीतवान्.
पुंलिङ्गं
स्त्रीलिङ्गं खलु, स्त्रीलिङ्गं खलु.
लेखनीं इस् स्त्रीलिङ्गं, रैट्? So does this have to be also
aam bani?
That is why we are saying samichi naam.
Correct.
Okay.
Astu. Uma Krishnan bani.
Saha aatmai hi mitrehi
aatmi and then the yai
aatmi yai. आत्मीयैः मित्रैः सह क्रीडति.
सो हियर् इट् शुड् बि दि अदर् सह.
सः, ओके, शि प्लेस्, ओकेण्ड् आफ़् सम्थिङ्ग्.
सः आत्मीयैः मित्रैः सह क्रीडति. अस्तु, सम्यक्. मित्रैः इति नपुंसकलिङ्ग वदतु भगिनि.
तृतीया विभक्ति,
तृतीया विभक्ति
नपुंसकलिङ्ग,
बहुवचन, बहुवचनं. मित्रेण मित्राभ्यां मित्रैः.
भगिनी, आत्मीय इत्युक्ते किम्?
आत्मीय इत्युक्ते तस्य प्रिय, क्लोस् टु हार्ट्, हिस् वेरि बेस्ट् फ्रेण्ड् इति वदामः खलु, अस्तु. अग्रे शारदा, उषा भगिनि.
आं भगिनि, अध्यापिका सर्वान् छात्रान् श्रद्धया बोधयति. श्रद्धया तृतीया,
तृतीया श्रद्धया बोधयति. I hear the bell ringing in somebody's house. Nice. Astu, agre? Agre ka vadati? Jyoti Bhagini.
Aam Bhagini. Dhanikaha nirdhanebhyaha janebhyaha vastrani dattavan.
Samyak.
Janebhyaha is pullinga panchami vibhakti bahuvachana.
Samyak. सम्यक् भगिनि. सो अत्र पञ्चमी इति किमर्थम् उक्तवती? दत्तवान् इति अस्ति.
आम् आं भगिनि, दत्तवान्.
दत्तवान् इत्युक्ते पञ्चमी आगच्छति वा अथवा चतुर्थी आगच्छति वा?
दत्तवान्
दानक्रिया अस्ति चेत् चतुर्थी विभक्ति खलु, दानक्रिया
चतुर्थी विभक्ति,
चतुर्थी विभक्ति. स्वीकरोति अप अथवा गच्छति इत्युक्ते पञ्चमी भवति, पञ्चमी. सो अत्र सर्वत्र एवमेव रूपं भवति. आत्मीयैः मित्रैः सर्वान् छात्रान् निर्धनेभ्यः जनेभ्यः केवलं स्त्रीलिङ्गम् अस्ति चेत् किञ्चित् भिन्नरूपं भवति, नो चेत् समानरूपमेव. बहु ध्वनिः अस्ति, अहं सर्वान् म्यूट् करोमि. अस्तु, अग्रे गोपिका भगिनी पुनः. अन्य कोऽपि अस्ति वा यस्य नाम अहं न उक्तवती?
परमेश्वर
परमेश्वर अस्ति. अन्य कोऽपि? अस्तु, गोपिका भगिनी, केतकी, अनन्तरं परमेश्वर महोदय. गोपिका भगिनी.
आं भगिनि. उन्नतात् वृक्षात् पर्णानि पतन्ति.
सम्यक्, उन्नतात् वृक्षात्, सम्यक्.
पञ्चमे एकवचनं पुल्लिङ्गं.
पुल्लिङ्ग, अस्तु. अग्रे केतकी भगिनी.
अध्यापकः अद्य समीचीन उन्नतात् कथाः उक्तवान्. अध्यापकः अद्य उन्नतात्
न भगिनि, एतत्
समीचीन. अध्यापकः अद्य समीचीनात् वाट् किन् कम्?
नो, हियर् वि हाव् एव्रिथिङ्ग्
कथा.
अत्र कथाः इति अस्ति खलु,
सः समीचीनः न भगिनि?
सो अत्र भगिनि कथा इति पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा? कथा
आकारान्त स्त्रीलिङ्ग.
आकारान्त स्त्रीलिङ्ग. सो अत्र कथाः इति अस्ति, अतः
I had to do samichina word or
samichina word. samichinaah kathaah uktavan. Kathaah iti strilinga dvitiya vibhakti bahuvachanam. Atah samichina api strilinga dvitiya vibhakti bahuvachana roopam bhavati.
Samichinaah
कथाः उक्तवान्. सम्यक् भगिनि,
धन्यवादः.
कथाः इति रूपं ज्ञात्वा तादृशरूपमेव समीचीना अपि भवति.
ओके भगिनि,
अस्तु. सो इफ् यु वाण्ट् टु से समीचीनेन अन्यपदं किम् आगच्छति? अध्यापकः अद्य समीचीनेन
भगिनि, समीचीनेन आल्सो गुड्
नो, इट् इट् विल् नाट् बि, देन् दिस् वर्ड् हेस् टु चेञ्ज्.
कथेन
उक्तवान्,
यु केन् से कथनेन,
कथनेन
आकारान्त स्त्रीलिङ्गं, सो वि केनाट् चेञ्ज् दिस् खलु, दिस् केनाट् बि चेञ्ज्.
ओके, सो समीचीनाः कथाः उक्तवान्,
उक्तवान्
रैट्?
आम्. बट् सपोसिङ्ग् दिस् इस् नाट् गिवेन् एण्ड् वि वाण्ट् टु यूस् समीचीना. Okay, so samichinena is not correct because the original word is samichina. samichina. But if you want to use samichinena,
so it should be samichine, samichiniya. If you are using it with a strilinga.
Aam bhagini, but somebody suggested samichinena. What word can we put over here?
Samichinena. Would it be a
napunsakam? Samichinena vachanena.
Vachanena, udaharanena, kathanena, paatam paatitavan. Adhyapakaha adhya samichinena vachanena, samichinena udaharanena.
So that is napunsakalingam, right?
So Bhagini, both word can come now.
No, Bhagini, in this only one word can come. Samichinaha kathaha, that's it. Somebody says samichinena, then it will not work. But if this word is not given, if the word kataha is not given, and then if we have samichinena,
then we have to use another word, like
another word. But for now we have samichinaha kataha eva.
Samichinena, then we have to use
napumsakalingam
only for the
Vishesha. Yeah, we can use
napumsakalingam
or
pullingam. Okay.
Asta.
Bhagini, I have a doubt here.
Samichina
is basically the adjective for kathaha. So, the teacher today told a good story. Right? That's what it translates to. Suppose we want to say, today the teacher told the story well. I mean, it qualifies the teacher's ability to tell the story rather than the story itself. How would we then rephrase the samichina?
Adhyapakaha adhya bhavateva vadato. Adhyapakaha adhya kataha.
Samichinataya.
So it becomes samichinataya uktavan.
Oh, okay.
So actually the word, so if you are going to describe, if it becomes an adverb, like for adverb we call kriya visheshanam bhavati chet atra padam asti samichinata.
Okay.
So it becomes samichinataya. I'm not writing it properly. It's not coming out properly. Samichinataya uktavan.
Okay.
Samichinataya uktavan. Astu.
But Bhagini, samichinataya katha uktavan, right? What samichinataya uktavan?
Yeah, kataha uktavan.
अतः उक्तवान्
अध्यापकः अद्य कथाः समीचीनतया उक्तवान् अध्यापकः अद्य समीचीनाः कथाः समीचीनतया उक्तवान्
अस्तु भगिनि धन्यवादः
समीचीनाः कथाः समीचीनतया उक्तवान् अस्तु अग्रे परमेश्वर महोदय
एतस्याः शालायाः सर्वेषु प्रकोष्ठेषु पुष्पफलकम् अस्ति
सम्यक् महोदय सम्यक्
थैंक्यू
सम्यक् एतस्याः शालायाः सर्वेषु प्रकोष्ठेषु कृष्णफलकम् अस्ति सम्यक् बहु सम्यक् Sagari Bhagini.
Asmin apane samichinani vastuni na santi.
Na santi, astu. So, ekameva asti, saha iti asti che tasmin.
Tasmin. Tadeva... That's what I said. You heard it as something else?
Yeah, I heard it as asmi. Okay.
No. I said tasmi.
Tasmi. Okay, samya. Tasmin apane samichinani vastuni na sante. Bahu samyak. Astu. Sandhya bhagini. Agre.
Confused, Bhagini. Saha tau se kaanam would be?
It will usually match with it. Yeah. Saha tau se tam tau
tan.
Tan.
Tan paathan patitva katham, is it, Bhagini?
Katham.
Etam katham patatu.
Samyak. Tan patan patitva etam katam patatu. Samyak. Agre Sharada Bhagini.
Saha nutanam yutakam dhritva nutanena karyanena gacchati.
Samyak. Nutanam yutakam dhritva nutanena karyanena gacchati. Samyak. Asta. Agrima abhyasah evam asti. Adah prativakyam visheshana dvayam suchitam asti. Artasya auchityam drishtva tayoho uchitena rupena riktasthanani purayata. So atra visheshana dvayam asti. Atah artam nyatva. Kutra kim agachati iti nirnayam kritva riktasthanani purayata iti. Saha, so atra nutana asti, prachina api asti. So atra puratana api vakchakma, puratana. Prachina atava puratana. Saha ghatim vikriya ghatim kritavan. Prachinam ghatim. Ghati iti strilinga padam. Atah prachinam ghatim vikriya nutanam ghatim kritavan. Evam asti. Astu. Savita Bhagini?
Aam Bhagini.
Aam.
Aham sundaram chitram pashyami, asundaram chitram na.
Asundaram chitram na pashyami. Samya. Na iti samya. Kumar Krishnan Bhagini.
Dash Singha Harinam Vinayasam Maritvan. Prabala Sinhaha. Prabalaha Sinhaha. Durbalam Harinam Vinayas Maritvan.
Samya. Prabalaha itikte tasya balaha asti. Prabalaha Simhaha Durbalaha. Balam nasti. Durbalam harinam vinayasam maritavan. Atava vinayasena maritavan api vaktum shakum. Pusha Bhagini, agre?
What is it? Dandaha prasvandirgha. Dandaha kirtitaha chet dandadvayam siddhyati.
Kartitaha.
Okay. Dirgaha dandaha kartitaha chet hraswam dandadvayam.
Samya. Agre? Jyoti Bhagini?
Aam Bhagini. Krishikaha bhumi jala sechanena karoti. Krishikaha kathinam bhumim जलसेचनेन मृदुलं करोति.
मृदुलं करोति. सो अत्र भूमिः इति स्त्रीलिङ्गपदम्. इदानीं वदतु, पुनः वदतु.
कृषिकः कठिना भूमिं जलसेचनेन मृदुलां करोति.
मृदुलां करोति. सम्यक्, अस्तु. अन्य कोऽपि अस्ति वा?
वन् डौट् इन् द प्रीवियस् सेण्टेन्स्. वै वर् द विशेषणं चेञ्ज् ह्रस्व दीर्घ bhagini, I don't know who said the sentence. She said dirgha danda satitah che danda dvayam khayati. What does it mean, bhagini? Why can't it be hrasva danda satitah che dirgham danda dvayam khayati? I didn't understand why.
I see. So if you understand the meaning, dirgha means long, dandaha means stick. If we cut the long stick, we will get two small sticks.
Okay. Sticks, okay. Got it, Bhagini. Thank you so much.
Astha. Gopika Bhagini, agree. Pancham Vakya.
Riktena Hastena सः जलेन पूर्णं चषकं गृहीतवान्.
सम्यक्. रिक्तेन हस्तेन पूर्णं चषकं गृहीतवान्. जलेन पूर्णं चषकं गृहीतवान्. अवगच्छन्ति खलु अर्थः कः इति? अवगच्छन्ति खलु? अस्तु, केतकि भगिनि अग्रे.
मलिनं वस्त्रं प्रक्षालयितुं स्वच्छवस्त्रं धरतु भवान्.
स्वच्छं वस्त्रं धरतु. मलिनं वस्त्रं स्वच्छं वस्त्रम्. अस्तु, परमेश्वर महोदय.
उन्नतः पुरुषः अवनभ्य वामनजनस्य हस्तं गृहीतवान्.
सो उन्नतः पुरुषः अवनम्य किम् आगच्छति? अवनम्य
वामनजनस्य
वामन विल् बिकम् वामन
वामनाय जनस्य नो वामने
जनस्य इति षष्ठी एकवचनं खलु, अतः वामन अपि तथा एव भवतु.
वामनस्य
जनस्य
हस्तं गृहीतवान्.
सम्यक्, वामनस्य जनस्य हस्तं गृहीतवान्. सम्यक्
भगिनि. अवनम्य
अवनम्य इत्युक्ते शिरम् अधः करोति खलु, तदेव अवनम्य.
न अवगतं भगिनि.
वयं नमस्कारं कुर्मः चेत् अस्माकं शिरम् अधः कुर्मः खलु, तदेव अवनम्य इति.
Bow your head, no, Bhagini.
When we bend our head down. Okay.
What does the sentence mean? I didn't understand.
Unnatah purushah avanamya vamana janasya vamanasya janasya hastam grihi.
Oh, okay. I got it.
What does that mean?
The tall guy.
Avanamya is
to shake hands with the God.
Okay. Somebody vadatu.
Avanamya kuchin. Aham na bodhayami.
Does it mean the tall man bent down to hold the hand of the people?
satyam.
Of the shorter one, shorter one. Mm. Of the kulak.
Is that what vibhakti is it? Or is it not a indeclinable?
It is a lyabanta padam.
Lyabanta padam. So in order to bend? No, what is that? Something else? Okay, I'll try to figure it out.
Yeah, so avan after bending, so avanamya vamanasya hastam grihitavan iti asti. Asti. Okay, who should go next? Sandhya Bhagini. Hello, Sandhya.
आशयः स्फुटः इत्यतः सः अस्फुटैः शब्दैः पुनः विवरणं कृतवान्
पुनः वदतु भगिनी सो अस्फुटैः मीन्स् अस्पष्टैः
आशयः स्फुटः
न आशयः अस्फुटः आशयः मीन्स् मीनिङ्ग् अर्थः
ओ ओके ओके आशयः अस्फुटः इत्यतः सः स्फुटैः शब्दैः पुनः विवरणं कृतवान्
सम्यक्
But I'm still not clear about the meaning, Harini.
Yeah, so the meaning is important. So, Ashayaha means Arthaha. Since the meaning was not clear, Asputaha means Aspashtaha, unclear.
Okay, okay.
Oh, Chamyata. So, because it was unclear, Arthaha, Asputaha, Iti Yataha. Because of this, therefore, like that, because this was not clear, saha sputaihi shabdaihi punaha vivaranam kritavan. Because the artha was not clear, he used clearer words and explained again.
Oh, okay. Using clearer words.
Shabdaihi. So when we say shabdaihi, that is the tritiya vibhakti. So that is the sadhana.
Bahuvachana.
Okay.
Using simpler words. I would say simpler, but clearer words. पुनः विवरणं कृतवान् अस्तु शारदा भगिनी
सामान्याः अपि जनाः सङ्कटिताः सन्तः विशिष्टं कार्यं साधयितुं शक्नुवन्ति
सम्यक् ओके सो ईवन् दो द पीपल् आर् सिम्पल् पीपल् सामान्यः जनः So, if an ordinary person cannot do extraordinary things, but if they get together, they can do extraordinary things. Ordinary people also, sangatitaha, when they form a sangha, when they form a group, vishishta, like asamanya, like wonderful, karyam sadhayitam. They will be able to accomplish. Sadayitum shaknuvanti. Asamanya janaha api vishishta karyam sadayitum shaknuvanti. Kada shaknuvanti?
Sangatitaha.
Sangatitaha santaha chet.
When they mix, when they sangat, sangati.
When they form a group.
Group, get together, yes.
As a group, they'll be able to do very many things. Extraordinary thing. Vishishta itite extraordinary. Samanya itite ordinary. Vishishta karyam sadhayitum shaknuvanti iti. Dhanyavad. Savita Bhagini.
Aam Bhagini. Pita nutanam vastram yada aneti tada balaya प्राचीनं वस्त्रं न रोचते एव.
हा सत्यं. पिता नूतनं वस्त्रं यदा आनयति तदा
बालाय प्राचीनं वस्त्रं
न रोचते एव. सो अत्र रोचते इति क्रियापदम् उपयोगं कुर्मः चेत् चतुर्थीविभक्तिरूपं भवति, नो चेत् द्वितीयाविभक्तिरूपमेव खलु. तदा बालः प्राचीनं वस्त्रं न इच्छति. बालः प्राचीनं वस्त्रं न इच्छति अथवा बालाय प्राचीनं वस्त्रं न रोचते. अस्तु अग्रे.
रोचते
इत्युक्ते इच्छत् इस् प्लीसिङ्ग् इति अर्थे अस्ति. यदा वयं किं भगिनि
इस् इट् क्रैङ्ग्
नो 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 इस् प्लीसिङ्ग्
प्रिफर्स् व्हेन् फादर् गेट्स् टू क्लोज़् सन् डज़न्ट् टेक् ओवर् क्लोज़्
Okay, what is it?
Rochate is preferred.
What is it? Rochate, that is rich.
Rochate preferred. Like.
It's like when he gets new clothes.
The boy doesn't like old clothes.
Bagini, we also, when we get new one, we don't like old clothes.
No, I understand the meaning, but I'm looking at the verb itself. Is it, did you say Chaturthi Vibhakti? You said something about.
Rochate.
Yeah, when we use rochate, we have to use chaturthi vibhakti. Balaya rochate.
Oh, I see. Okay.
Balaya rochate. Mahyam rochate. Mahyam vastram na rochate. Like that.
What is the dhatu for rochate?
I don't know, Bhagini. You have to look it up.
Oh, I see. Okay.
So, rochate, how do we look it up? Let's see.
Ashtadhyayi,
but we have to know the root, right? Mm-hmm. So you go to the kosha.
Ruchi.
Yeah. Ruchi, but I'm just showing her.
How I thought maybe it was ruchi. Because it's liking, you know, ruchi.
Ruch.
Okay. Yeah.
Ruch means to be pleased by it.
Please.
Oh, okay. Rochate, like, but it's not the ordinary rochate, it is in the passive sense. Rochate.
Okay.
And then you go to ruch, you go to ashtadhyayi, and then you can find it. Astu. Agrima, vishayah asti, ataha yataha. अत्र अध्यायस्य संख्या का
3
त्रयविंशतिः. संख्या इति वदामः चेत् त्रयविंशतिः खलु. त्रयविंशतिः बट् इफ् यु वाण्ट् टु से 23rd अध्याय कथं वदामः?
विंशतितम
अध्यायः. अस्तु त्रयविंशतितम अध्यायः. अस्तु अतः यतः. सो अत्र एकमस्ति कारणवाक्यम्, अन्येकमस्ति करणवाक्यम्. किं वदामि, अद्य शुक्रवासरः, अतः अस्माकं वर्गः अस्ति. अद्य शुक्रवासरः इति कारणम्, अतः वर्गः अस्ति इति करणम्. अद्य अस्माकं वर्गः अस्ति यतः शुक्रवासरः, अद्य शुक्रवासरः.
Oh, so today is Shukravas, Friday, so our class is going on. Okay.
Right. So, when I say Adya Shukravasarah, that is the Karanam, that is the reason. Hello?
Oh.
Reason. Oh. Reason Karanam. Iti vadamah, Karanam. So, Ekam asti Karanavakyam. Anyekam asti Karanam. What are you doing about it? Karanam. Karanam, karanam.
So, ataha is a karanam. And yataha is a karanam.
Yataha is the karanam.
Karanam.
Ataha is the karanam. Ataha is the karanam.
Karanam, okay.
Asmakam vargaha asti. Yataha adya shukravasaraha.
So loosely, Bhagini, since and therefore, right?
Therefore and because, like, since.
Therefore.
Ataha is therefore.
Ataha is therefore.
Adya Shukravasaraha asti, ataha Samskrita Vargaha asti. Okay, ataha yataha. Okay, agre gachamaha kasya kramaha Uma Krishnan Bhagini Uttavati kalu Usha Bhagini. Uma Krishnan Uttavati kalu
Bhagini. Bhagini. I didn't.
Astu Bhagini. Patatu.
Who, me?
Oh, Uma Krishnan Bhagini.
Okay.
Lata, Shamyatam Bhine, Yanam Shigram na Praptam, na Praptam. अतः विलम्बः जातः. रेखा, हौ डू प्रनौन्स् द लास्ट् वर्ड्?
क्व मीन्स् कुत्र. रेखा कुत्र अस्ति? रेखा क्व,
रेखा क्व.
अग्रिममपि पठतु.
वीणा सार्धषड्वादने सार्धषड्वादने मात्रा सः तया अन्यत्र गन्तव्यम् अस्ति. अतः सा पञ्चभ्यः निमेषेभ्यः पूर्वं गतवती.
अस्तु.
पूर्वं गतवती.
पूर्वं गतवती. अस्तु. सो अत्र पश्यन्तु, क्षम्यतां वीणे, यानं शीघ्रं न प्राप्तम्. दट् इस् द कारणम्. यानं शीघ्रं न प्राप्तम्, अतः विलम्बः जातः. विलम्बः जातः यतः किं? यतः
यानं
न प्राप्तम्. सो एतत् अस्ति कारणं, किमर्थम् विलम्बः जातः इति. एवम् आसीत्. किमर्थम् एवम् आसीत्? यानं शीघ्रं न प्राप्तम्, अतः एवम् आसीत्. रेखा कुत्र अस्ति? सार्धषड्वादने. सो अत्र पश्यन्तु, एकमेव पदं, सार्धषड्वादने मात्रा सह. माता, माता प्रथमा विभक्ति एकवचनरूपं. मातृ शब्द ऋकारान्तशब्दः. अतः मात्रा सह तया अन्यत्र गन्तव्यम् अस्ति. सो गन्तव्यम् इति कर्मणि प्रयोगः. सो अतः तृतीया विभक्तिरूपं भवति, अथवा सा अन्यत्र गच्छेत् इति भवति. अन्यरूपं वी हेवन्ट् लर्न्ड् दट् यत्. अस्ति. अतः सा पञ्चभ्यः निमेषेभ्यः पूर्वं गतवती. किमर्थं सा पञ्चभ्यः निमेषेभ्यः पूर्वं गतवती?
Should have gone 5 minutes earlier.
किमर्थं? कारणं किम्?
कारणं तु मात्रातः अन्यत्र
अन्यत्र गन्तव्यम् अस्ति. अतः
वादने सा मात्रा सह अन्यत्र गन्तव्यम्.
सा मात्रा सह अन्यत्र गन्तव्यम् अस्ति. अतः सा पञ्चभ्यः निमेषेभ्यः पूर्वं गतवती.
पञ्चभ्यः इस् तृतीय बहुवचनं.
No, whenever we have Purvam, we have to use Panchami Vibhakti.
Panchami, okay.
Panchami Vibhakti. Or we can say Panchanimeshebhyaha Purvam.
Mm-hmm.
Panchanimeshebhyaha Purvam, atava Panchabhyaha Nimeshebhyaha Purvam.
So both are right, okay.
Both are okay. This is split, Vibhajanam Kritva, अत्र अपि विभक्तिरूपं भवति. नो चेत् विभक्तिरूपं न भवति. पञ्चनिमेषेभ्यः सो अत्र अपि अतः अतः इति अस्ति. यतः सा मात्रा सह अन्यत्र गन्तव्यम् अस्ति तया, अतः सा पञ्चनिमेषेभ्यः पूर्वं गतवती. यतः अतः
अतः करणं
करणं यतः इति कारणम्. किमर्थम् अहं न लिखामि? यतः मम समीपे लेखनी नास्ति.
कारणमस्ति,
मम समीपे लेखनी नास्ति. कारणम् अहं न लिखामि, अतः अहं न लिखामि. यतः मम समीपे लेखनी नास्ति, अतः अहं न लिखामि. करणं कारणम् एवम् अस्ति. अस्तु, उषा भगिनी अग्रे.
लता, तर्हि इदानीं किं करवाव? दट् मीन्स् वीणा. यतः विलम्बस्य कारणं भवति एव, अतः भवती एव सूचयतु किं करणीयम् इति.
अस्तु,
सो तर्हि इदानीं किं करवाव? करवाव
करवाव इत्युक्ते किं करणीयम्, अस्माभिः किं करणीयम् इति.
द्विवचनं उत्तमपुरुष,
उत्तमपुरुष लोट्लकाररूपम्.
ओके, लोट्लकाररूपम्.
अस्तु,
यतः विलम्बस्य कारणं यत् बिकास् विलम्बस्य कारणं, बिकास् आफ् बीङ्ग् लेट्,
विलम्बस्य कारणं भवति एव.
वाट् डस् दट् मीन्?
यु आर् द रीज़न्. विलम्बस्य कारणं भवति एव.
ओके, यतः विलम्बस्य कारणं भवति एव, अतः देर्फोर् भवती एव सूचयतु. यू ओन्ली टेल् वै वाट् वी शुड् डू. सूचयतु किं करणीयम् इति.
किं करणीयम् इति भवती एव सूचयतु. अतः यतः भवती एव कारणम्, अतः भवती एव सूचयतु किं करणीयम् इति.
ओके, सो यतः इस् आल्सो बिकास्.
देर्फोर्. अस्तु, अग्रे ज्योति भगिनी.
आं भगिनि. लता, उमा चित्रमन्दिरं गत्वा वीणा सखि तत्र अद्य महान् सम्मर्दः, यतः तत्रत्यं चित्रं नूतनम्. अन्यच्च नगरयानप्राप्तौ अपि क्लेशः, यतः एषः कार्यालयसमाप्तिसमयः. अतः
अतः उत्तम. अतः लता भगिनी वदति उमाचित्रमन्दिरं गत्वा, परन्तु वीणा मध्ये एव वदति, सखि तत्र अद्य महान् सम्मर्दः. सम्मर्दः इत्युक्ते बहु जनाः आगच्छन्ति, कार्यानानि अपि सन्ति तत्र, आगच्छन्ति मार्गे, अतः सम्मर्दः भवति. यतः किमर्थं सम्मर्दः? यतः तत्रत्यं चित्रं नूतनं, नूतनं चित्रं तत्र प्रदर्शयन्ति इदानीं, नूतनचलनचित्रं प्रदर्शयन्ति ते. यतः तत्र नूतनं चलनचित्रं प्रदर्शयन्ति, अतः तत्र महान् सम्मर्दः भवति. अन्यविषयः अस्ति, अन्यत् च, अन्यविषयः अस्ति, नगरयानप्राप्तौ अपि क्लेशः. नगरयानप्राप्तिः इति शब्दः, प्राप्तौ इति सप्तमीविभक्तिरूपं. नगरयान इत्युक्ते लोकयानं, लोकयानप्राप्तौ अपि क्लेशः, प्राप्तिविषये क्लेशः भवति. इत्युक्ते सुलभतया न प्राप्तुं शक्नुमः, लोकयानं सुलभतया न प्राप्तुं शक्नुमः. किमर्थं? यतः एषः समयः कार्यालयसमाप्तिसमयः. यतः एषः कार्यालयसमाप्तिसमयः, सर्वे कार्यकर्तारः लोकयानेन गच्छन्ति अथवा लोकयानैः गच्छन्ति, अतः अस्माकं तत्र गन्तुं न शक्नुमः इति.
भगिनी, तत्रत्यम् इत्युक्ते किम्?
तत्रत्यम् इत्युक्ते तत्र किम् अस्ति, तत् दट् इस् आल्सो करेक्ट्, परन्तु तत्र किं चित्रम् अस्ति, तत् चित्रं नूतनं.
भगिनि
एकनिमिषं केतकी भगिनि, सन्ध्या भगिनी अवगच्छति वा? तत्र यत् चित्रम् अस्ति तत् चित्रं नूतनम् इति. तत्र
इस् इट् तत्र एण्ड् अयम्?
न,
जस्ट् अ वर्ड् लैक् दट्, तत्रयं, तत्रत्ययं, तत्रत्यम्.
अस्तु, अग्रे केतकी भगिनि.
भगिनि, इन् दिस् सेण्टेन्स् एव्रिथिङ्ग् इस् अ रीज़न्, नो?
No, they are giving reason, but they are not saying atah, kalo. They are giving the reason after the karana.
After the karana?
Karana. So, atra adhya mahan sammardah. Yatah tatratyam chitram notanam.
Tatra chitram notanam tasya karane people get together.
Tasya ka
right?
Tasya karane.
Or for that reason we cannot get our bus or nagaryan.
So atra bhagini, when you say tasya karanena, you have to say tena karanena. Because we have the karanena kalo. So tena karanena. महान् सम्मर्दः भवति. सम्मर्दः मीन्स् रश् आफ् पीपल्, रश्
राइट्
लैक् दट्.
राइट् राइट्
राइट्
ट्राफिक्
फार् देट् कारणे. वै? बिकास् कार्यालय समाप्ति समय भवति, तस्य कारणे वी केन् नाट् गेट् द नगर्यानम् और् पीपल् गेट् टुगेदर् विद् टू रीज़न्स्.
right, right, right. Correct, correct. एषः कार्यालयसमाप्तिसमयः अतः नगरप्राप्तौ अपि क्लेशः.
My question is, अतः meaning, where is अतः?
अतः comes here. अतः comes here. अतः comes here.
Oh.
So, अहम् एवं वदामि, तत्रत्यं चित्रं नूतनम् अतः.
अस्तु अस्तु अस्तु.
तत्र अद्य महान् सम्मर्दः भवति. एषः कार्यालयसमाप्तिसमयः अतः नगरयानप्राप्तौ अपि क्लेशः भवति.
So there is a two reason, that's why अतः we cannot go to this उमाचित्रमन्दिरम्.
आम् सत्यम्.
Right?
आम् सत्यम्.
What is अन्यत् च?
अन्यत् च अनदर्
अन्यत् च इस् अन्यत् प्लस् च.
अन्यत् प्लस् च.
अस्तु भगिनि.
अस्तु.
So, tatratyam is a word by itself. It is not a combination of words. Like anyach.
Anyat, yeah. Aam, aam bhagini, aam.
Okay.
Agde, ka patati? Who just read now? I don't know. Uma Krishna patita vatikalo. Usha bhagini, agre.
अतः तत्र गमनं मास्तु. एवं खलु? तर्हि अत्रैव उद्याने उपविश्य कलायं खादाम किम्?
खादाम किम्? अस्तु.
खादाम किम्? अतः अतः इस् देयरफॉर एक्चुअली. सो वेर इस् इट रीजन? अतः तत्र गमनं मास्तु. देयरफॉर डोंट गो देयर. एवं खलु? वै वै सो
रैट् सो लैक्
तर्हि
अपि लोट्लकारः भगिनि खलु.
किं भगिनि?
खादाम किं? तदपि लोट्लकारः खलु भगिनि.
सत्यं सत्यं सत्यं.
सो तर्हि अत्रैव उद्याने उपविश्य कलायं खादाम किम्?
उपविश्य भगिनि, उषा भगिनि, कृपया संस्कृतेन वदतु कृपया
प्लीज़. ओके. तर्हि अत्रैव अत्र एव उद्याने उपविश्य इस् लेवन्तम् उपविश्य टु सिट् और् सिटिङ्ग् उपविश्य कलायं कलायम् इस् अ स्वीट् ऐ गेस् मधुर मधुरं
कलायम् इत्युक्ते पीनट्स् इति वदामः खलु तदेव खादाम किम्? अस्तु. ज्योति भगिनि अग्रे.
In this sentence, Vagini, that which is yataha?
All these are yataha.
No, in that particular sentence that I read, atra, ataha, tatra gamanam mastu.
Atra nasti, Vagini, so.
Oh, atra nasti? Yataha nasti?
Atra, nasti, nasti.
Okay, astu.
Astu. Jyoti, Vagini? Astu. No chet, Gopi, Vagini. गोपिका भगिनि.
आं भगिनि. वीणा अनुमन्यते मया यतः सूचना उत्तमा अस्ति, किन्तु यतः मासान्त्यम् अतः मम धनस्यूतः रिक्तः यतः धनस्यूतः रिक्तः अतः भवत्या एव
अस्तु अनुमन्यते मया इत्युक्ते अहम् अहम् अङ्गीकरोमि इति भगिनि वदतु
पर्मिशन् वा भगिनि
न न अनुमन्यते न अनुमानं खलु सो
वट् विभक्ति तृतीय अनुमन्यते
अनुमन्यते मया इस् तृतीय
अनुमन्यते इस् नाट् विभक्ति
नो नो भगिनि मया इस् विभक्ति अनुमन्यते इस् क्रियापदम् अनुमन्यते
आत्मनेपदं खलु भगिनि
आत्मनेपदे एक्साक्ट्लि अहम् अङ्गीकरोमि इति सो अत्र उषा भगिनि नार्त् ईवन् इन् दट् कथा माला ओके when we give an alternative word just accept it like that okay because we will not be able to explain because in the katha mala we are not supposed to use the grammar okay we are not supposed to use the grammar
okay I'm stuck on grammar now
please do not because then we get stuck in the katha mala we cannot move on okay if you ask what is this word no we, if you give alternative word you understand the meaning tavateva okay in the katha we just have to get the meaning of the katha we don't have to know every single word okay astu so atra maya anumanyate itikte aham angikaromi
agri
अहम् अङ्गीकरोमि अहमपि तथा एव चिन्तयामि अत्र एव तिष्ठामः यतः सूचना उत्तमा अस्ति अहम् अङ्गीकरोमि किमर्थम् अङ्गीकरोमि यतः सूचना अस्ति यतः सूचना अस्ति अतः मया अनुमन्यते अतः मया अनुमन्यते अथवा यतः अतः अहम् अङ्गीकरोमि किन्तु यतः मासान्त्यम् इत्युक्ते अन्तिमभागम् एण्ड् आफ् द मन्त् मासस्य अन्तिमभागं मासान्त्यम् अतः मम धनस्यूतः रिक्तः अत्र यतः अतः यतः मासान्त्यम् अतः मम धनस्यूतः रिक्तः किमर्थं मम धनस्यूतः रिक्तः यतः अहम् अङ्गीकरोमि परन्तु दिस् इस् कर्मणि प्रयोगः सो फर् कर्मणि प्रयोगः इट् विल् बि मया अनुमन्यते मया दृश्यते सो वेन् वि आस् दृश्यते वा मया दृश्यते इट् इस् सीन् बै मी
So, if it is by me, it will not be Tritiya, is it?
No.
Okay. By you is Tritiya. Okay.
By me is Tritiya.
Dhanyavad, Bhagini, and kindly excuse me.
Astu, Bhagini. Astu. Astu. So, atra, yataha dhanasyutaha riktaha, अतः भवत्या एव किं करणीयम् भवत्या एव धनं दातव्यम् इति भवत्या एव धनं दातव्यम् अथवा भवती एव धनं ददातु तत् स्पष्टमस्ति
दातव्यं वा दातव्यं वा भगिनि
दातव्यम् अस्तु लता वदति अये धनम् अहमेव ददामि आगच्छ तावत् इति Asta. If anybody else has to go because of Akshaya Triti or no?
No, Bhagini.
Asta. Ketake Bhagini.
Visheshaha.
Ah.
Ataha, Shaityam Asti, Ataha, Saha, Swedakam Dharati. शैत्यम् अस्ति कारणवाक्यं सः स्वेदकं धरति कार्यवाक्यं
कार्यवाक्यं
दट् इस् रैट् ऐ अण्डर्स्टाण्ड्
अवगच्छामि अवगच्छति अवगच्छामि स्वेदकम् इत्युक्ते
रैट् भगिनि कारणवाक्यं पूर्वम् उक्तं चेत् कार्यवाक्यम् अनन्तरम् उच्यते तदा कार्यवाक्ये अतः इति योजते
कारणवाक्यं पूर्वम् उक्तं चेत् प्रथमं वयं कार्यवाक्यं वदामः चेत् अतः इति उक्त्वा करणवाक्यं वदामः नो चेत् प्रथमम् ओके अग्रे आगच्छति अग्रे परमेश्वर महोदय
यतः सः स्वेदकं धरति यतः शैत्यम् अस्ति इत्यत्र कार्यवाक्यम् अदौ उत्तम् अनन्तरं कारणवाक्यम् उत्तम् अतः उत्तरवाक्ये कारणवाक्ये यतः इति योजितम्
अस्तु अत्र सः स्वेदकं धरति इति प्रथमं वदामः चेत् यतः शैत्यम् अस्ति कारणवाक्यम् अग्रे
कारणवाक्यम् स्वेदकं सोरि यतः शैत्यम् अस्ति
शैत्यम् अस्ति इति कारणम् कार्यवाक्यं सो अत्र सः स्वेदकं धरति किं कारणं यतः शैत्यम् अस्ति अतः किं करोति अतः स्वेदकं धरति
Bhagini? Bhagini, so we can use one sentence two way, right?
Nischayana, satyam.
Astu.
Vayam twanta rupam atava tuman viti vadamah kalo. Aham tatra gatva khadami, aham khaditum tatra gachami. Like that. So we can interchange. Yataha ataha.
सो यतः शैत्यमस्ति तस्य कारणे सः स्वेदकं धरति रैट्
तेन कारणेन
अस्तु
तेन कारणेन सः स्वेदकं धरति अथवा यतः शैत्यमस्ति अतः सः स्वेदकं धरति अतः सागरि भगिनि
एवं च अयं निर्णयः यत् कारणवाक्यम् आदौ उक्तं चेत् अतः इति योजित्वा कार्यवाक्यं वक्तव्यम् कार्यवाक्यम् आदौ उक्तं चेत् यतः इति योजित्वा कारणवाक्यं वक्तव्यम्
योजयित्वा इति भवति सो अत्र प्रथमं कारणवाक्यं वदामः चेत् अतः सः स्वेदकं धरति शैत्यम् अस्ति कारणवाक्यं खलु कारणमिति अद्य शैत्यम् अस्ति अतः सः स्वेदकं धरति कार्यवाक्यं प्रथमं वदामः चेत् सः स्वेदकं धरति यतः अद्य शैत्यम् अस्ति इति वक्तुं शक्नुमः इति वक्तव्यं वक्तव्यम् इति वदामः चेत् निर्णयः निर्णयः इत्युक्ते रूल् एवम् एवमेव भवतु इति अवगच्छन्ति इति मन्ये. अस्तु, शारदा भगिनी अस्ति वा? अस्तु.
आं भगिनि.
अधो निर्दिष्टेषु वाक्येषु कारणवाक्यं किं कार्यवाक्यं किम् इति निर्दिशत. निर्दिशत इत्युक्ते वदतु, शोवेत् सूचयतु इति. कर्मकरः घटं भञ्जितवान्, अतः स्वामी कुपितः. भञ्जितवान् इत्युक्ते भञ्जितवान् इत्युक्ते भञ्जनं मीन्स् ऐ थिङ्क् हि ब्रोक् इट् करो न.
Aam, aam bagini, broke it. Okay, so okay. The Swami got angry.
Cool. Angry.
The pot was broken by the helper.
By the worker. Karma haraha. So, atra, karana vakyam kem?
Karma karaha ghatam.
ghatam bhajjitavan. Karyam kem? अतः किम् अभवत्? स्वामी कुपितः इत्युक्ते स्वामी कुपितः अभवत्, कोपम् अभवत्. स्वामिनः कोपः अभवत्. अस्तु, अत्र स्वामी इति पदं स्वामिन् मूलरूपम् अस्ति, स्वामिन्. अतः स्वामी इति प्रथमाविभक्तिरूपं. स्त्रीलिङ्गे कथं भवति? स्वामिनि. कुपितः इति स्थाने किं? स्वामिनि कुपिता भवति अभवत्. अस्तु, अग्रे शारदा भगिनी, खलु शारदा.
निद्रा मां पीडयति, अतः अहं निद्रां करोमि. कारणवाक्यं निद्रा मां पीडयति. कार्यवाक्यम् अतः अहं निद्रां करोमि.
सम्यक्. अस्तु, सविता भगिनी.
आं भगिनि. गृहिणी पुष्पाणि क्रीतवती, यतः अद्य उत्सवः. कारणवाक्यम् अद्य उत्सवः.
सम्यक्.
कारणवाक्यम् अद्य उत्सवः. कार्यवाक्यं गृहिणी पुष्पाणि क्रीतवती.
सम्यक् सम्यक्. अग्रे उमाकृष्णन् भगिनी.
अहं घटीं न धरामि, यतः मम घटी सम्यक् नास्ति. कारणवाक्यं मम घटी सम्यक् नास्ति. कार्यवाक्यम् अहं घटीं न धरामि.
सम्यक् सम्यक्. सर्वे अवगच्छन्ति खलु? अस्तु, उषा भगिनि.
अहं परीक्षा समीपम् आगता, अतः छात्राः देवालयं गच्छन्ति. कारणवाक्यं रैट्? कारणवाक्यं परीक्षा समीपम् आगता. कार्यवाक्यं नो, छात्रा कारणवाक्यं विल् बि छात्राः देवालयं गच्छन्ति.
किमर्थं देवालयं गच्छन्ति?
सोरि,
कारणं किं?
कारणं परीक्षा समीपम् आगता.
तदेव कारणं.
यतः परीक्षा समीपम् आगता, कार्यवाक्यं अतः छात्राः देवालयं गच्छन्ति.
हा सम्यक् सम्यक्. ज्योति भगिनि अग्रे.
आं भगिनि, अहं गच्छामि भगिनि यतः मम कक्षा अस्ति. कारणवाक्यं मम कक्षा अस्ति. कार्यवाक्यम् अहं गच्छामि भगिनि.
सम्यक्. गोपिका भगिनी अग्रे.
आं भगिनि, सः प्रथमं स्थानं प्राप्तवान् अस्ति, अतः तस्य महान् सन्तोषः. कारणवाक्यं सः प्रथमं स्थानं प्राप्तवान् अस्ति. कार्यवाक्यम् अतः तस्य महान् सन्तोषः.
महान् सन्तोषः. सम्यक् अस्तु
भगिनि. Can we, we can use, sorry bhagini, how can I take in this Sanskrit?
Vadatu bhagini. Astu angila bhasha meva vadatu. Vadatu.
Can I use karana vakya asti, saha prathama sthanam praptavan asti, ataha. कार्यवाक्यम् अस्ति, तस्य महान् सन्तोषः अस्ति, रैट्? सो महान् सन्तोषः अस्ति बिकास् सः प्रथमं.
वदतु, तस्य महान् सन्तोषः अस्ति
बिकास्
यतः
प्रथमस्थानं प्राप्तवान्.
सम्यक् सम्यक्.
सो वी केन् यूस् टु वे नो.
सत्यं सत्यं. सो अत्र तथा एव अस्ति खलु. कारणवाक्यम् आदौ इत्युक्ते प्रथमं. कारणवाक्यम् आदौ चेत् अतः इति योजयतु अग्रे. कार्यवाक्यम् आदौ वदामः चेत् कार्य यतः इति योजयित्वा कारणवाक्यं वदतु. वक्तव्यम् इत्युक्ते वदतु इति.
दिस् इस् अ वेरि इण्ट्रेस्टिङ्ग् एण्ड् वेरि स्वीट् नो.
वेरि स्वीट्, वेरि स्वीट्.
यस्
अस्तु. परिमे केतकि भगिनी अग्रे खलु.
अभ्यास हौ केन् ऐ से तृतीय अष्टशित त्रीणि.
सो विसे त्र्यशीतिः
त्रयशीति अष्ट
त्रयशीतिः अभ्यासः. त्रयशीतितम अभ्यासः.
त्रयशीतितम अभ्यासः.
अधः पठतु.
निर्दिष्टेषु उदाहरणेषु कार्यवाक्यम्
उदाहरणेषु
कार्यवाक्यम् आदौ उक्तम्. उत् कारणवाक्यम् इति परिशील्य उत्तरवाक्ये स्थितं रिक्तं स्थलम् अतः इति पदेन यतः इति पदेन वा प्रयत्.
पूरयत. सो अत्र किं वदति इत्युक्ते आदौ कारणवाक्यं वा कार्यवाक्यं वा अस्ति किम् इति प्रथमं चिन्तयतु. अनन्तरम् अतः वा यतः वा इति योजयित्वा पूरयतु इति. उदाहरणं, लेखन्यां मशी नास्ति, अन्यां लेखनीं स्वीकरोमि. लेखन्यां मशी नास्ति इति कारणवाक्यं वा करणवाक्यं वा? अतः वियुस् अतः.
अतः अन्यां लेखनीं स्वीकरोमि.
अन्यां लेखनीं स्वीकरोमि. अस्तु. केतकि भगिनि.
ओ अगेन्. सः उपवासम् आचरति अद्य एकादशी. सः उपवासम् आचरति, देट् इस् द कारणवाक्यं.
करणं वा कारणं वा सम्यक्
उपवासम् आचरति देट् इस् न सः उपवासम् आचरति बिकास् शी इस् हेस् उपवासम्
अस्तु करणवाक्यं वा कारणवाक्यं वा
कारणं वाक्यम्
अस्तु सो अत्र किम् आगच्छति
यतः
यतः अद्य एकादशी अद्य एकादशी इति कारणवाक्यं
कारणवाक्यम्
अस्तु
अस्तु
Bhagini, can we at the same time do it the other way also so that we get more practice?
Nischayana. Adya Ekadashi.
Adya Ekadashi asti saha upvasam acharati.
So Bhagini, ataha atava yataha yojayato. Adya Ekadashi.
Yataha saha upvasam acharati.
Yataha adya Ekadashi. एव
अतः अतः यद्य एकादशी यतः सः उपवासम् आचरति
सो अत्र कारणवाक्यम् अस्ति चेत् ततः पूर्वमेव यतः आगच्छति करणवाक्यम् अस्ति चेत् अतः
सो यतः अद्य एकादशी अतः सः उपवासम् आचरति
अस्तु अन्येकं कृत्वा समापयामः परमेश्वर महोदय
सा अस्वस्था सा चिकित्सालयं गच्छति यतः सा अस्वस्था ततः सा चिकित्सालयं गच्छति
अतः अतः सा चिकित्सालयं
गच्छति सा चिकित्सालयं गच्छति यतः सा अस्वस्था
सम्यक् सा अस्वस्था समयः अभवत् खलु समापयामः वा अस्तु अस्तु अग्रिमवर्गे अग्रे कुर्मः आरम्भतः वयं वदतु भगिनि
एकः प्रश्नः इन् द कान्वर्सेशन् पञ्चभ्यः निमेषेभ्यः सो वाट् इस् द प्रातिपदिकं पञ्चभ्यः पञ्चाभ्यः
सो अहं समापयामि भगिनि अनन्तरं वदामि अस्तु
धन्यवादः
अत्रैव तिष्ठतु ॐ सर्वे भवन्तु सुखिनः
सर्वे भवन्तु
भद्राणि
पश्यन्तु
हरिः ओम् नमः